चित्रं त्रिंशत्। यूशेषः एकः शक्तिवन्तः। इदं चित्रेषु अहमेवं द्वौ मानवहां पश्यन्ति, तेषु त्वमेव विग्रहानानि च बन्धनानि, तत्सर्वं सर्वत्राणि अग्नेषु अर्पयति स्म। ते सैतानस्य पूज्यन्ति। तु च एतत् समयं तेषु जनेषु प्रभु ईशस्य पन्थः अनुसरणयन्ति। ईशेषु कुर्वन्तनाम् एकः व्यक्तिः कञ्चित् सैतानस्य पूजाकार्यक्रमाणि मा करोति स्म। युष्मान् सदाकारं सैतानस्य कार्येण मा भयभ्रान्तः मा सन्ति। किमेव अस्माकम् ईश्वरं सैतानः अत्यधिकशक्तिवन्तः। प्रति एकः विश्वासियों सैतानस्य बन्धनेषु विमुक्ति प्राप्तं तज्ञम्। एकं कञ्चित् प्रभु ईशस्य सुरक्षतास्थिति प्रादेहितम्। तत्समयेन प्रभु ईशुस्य सहायं तज्ञं कुर्वति।